वेदै सर्वाणि कर्माणि अफलपरतया वर्णितानीति बुद्ध्वा तानि त्वय्यर्पितान्येव हि समनुचरन् यानि नैष्कर्म्यमीषा मा भूत् वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचां प्रवृत्तिर्दुर्वर्जं चेत् अवाप्तं तदपि खलु भवति अर्पये चित्प्रकाशे यस्त्वन्यः कर्मयोगस्तव भजनमयः तत्र चाभीष्टमूर्तिं हृद्यां सत्त्वैकरूपां दृशति हृदि मृदि क्वापि वा भावयित्वा पुष्पैः गन्धैः निवेद्यैः अपि च विरचितैः शक्तितो भक्तिपूतैः नित्यं वर्यां सपर्यां विदधत् अयि विभो त्वत्प्रसादं भजेयं स्त्रीशूद्राः त्वत्कथादिश्रवणविरहिताः आसतां ते दयार्हाः त्वत्पादासन्नयातान् द्विजकुलजनुषो हन्त शोचामि अशान्तान् वृत्त्यर्थं ते यजन्तः बहुकथितमपि त्वामनाकर्णयन्तः दृप्ताः विद्याभिजात्यैः किमु न विदधते तादृशं मा कृथा मां पापोऽयं कृष्णा रामा इत्यभिलपति निजं गूहितुं दुश्चरित्रं निर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विघ्नितानि भ्राता मे वन्ध्यशीलो भजति किल सदा विष्णुं इत्थं बुधान् ते निन्दन्ति उच्चैर्हसन्ति त्वयि निहितमतीन् तादृशं मा कृथा मां श्वेतच्छायं कृते त्वां मुनिवरवपुषं प्रीणयन्ते तपोभिः त्रेतायां सृक्स्रुवाद्यङ्कितम् अरुणतनुं यज्ञरूपं यजन्ते सेवन्ते तन्त्रमार्गैः विलसदरिगतं द्वापरे श्यामलाङ्गं नीलं सङ्कीर्तनाद्यैः इह कलिसमये मानुषाः त्वां भजन्ते सोऽयं काले यकालो जयति मुररिपो यत्र सङ्कीर्तनाद्यैः निर्यत्नैरेव मार्गैः अखिलदा न चिरात् त्वत्प्रसादं भजन्ते जाताः त्रेताकृतादावपि हि किल कलौ सम्भवं कामयन्ते दैवात् तत्रैव जातान् विषयविषरसैः मा विभो वञ्चयास्मान् भक्तास्तावत्कलौ स्युः द्रमिळभुवि ततो भूरिशः तत्र चोच्चैः कावेरीं ताम्रपर्णीम् अनुकिलकृतमालाञ्च पुण्यां प्रतीचीं हा मामपि एतत् अन्तर्भवम् अपि च विभो किञ्चिदञ्चद्रसं त्वयि आशापाशैर्निबध्य भ्रमयन भगवन् पूरय त्वन्निषेवां दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ्महीक्षित्परीक्षित् हन्तुं व्याकृष्टखड्गोऽपि न विनिहतवान् सारवेदी गुणांशात् त्वत्सेवादि आशु सिद्ध्येत् असदिह न तथा त्वत्परे चैष भीरुः यत्तु प्रागेव रोगादिभिः अपहरते तत्र शिक्षयैनं गङ्गागीता च गायत्री अपि च तुलसिका गोपिका छन्दनं तत् सालग्रामाभिपूजा परपुरुष तथा एकादशी नामवर्णाः एतानि अष्टापि अयत्नानि अयि कलिसमये त्वत्प्रसादप्रवृद्ध्या क्षिप्रं मुक्तिप्रदानीति अभिदधुः ऋषयः तेषु मां सज्जयेथाः देवर्षीणां पितॄणाम् अपि न पुनः ऋणी किङ्करो वा स भूमन् योऽसौ सर्वात्मना त्वां शरणमुपगतः सर्वकृत्यानि हित्वा तस्योत्पन्नं विकर्मापि अखिलमपनुदस्येव चित्तस्थितस्त्वं तन्मे पापोत्थतापान् पवनपुरपते रुन्धि भक्तिं प्रणीयाः ओं तत्सदिति श्रीमन्नारायणीये द्विनवतितमं दशकं समाप्तं श्रीहरये नमः रमारमणगोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।